इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका आदौ मुख्य वार्ताः राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां सर्वोच्च न्यायालयस्य नूतन ध्वजस्य प्रतीकचिह्नस्य च अनावरणम् अकरोत्। रेलमन्त्री अश्विनी वैष्णवः कथितवान् यत् नवनिर्मितं वन्दे भारत शयनयानस्य संस्करणं केषुचित् दिवसेषु उपलब्धं भविष्यति। समग्रदेशे अद्य आरभ्य राष्ट्रिय पोषण सप्ताहः समाचर्यते। ऋतुविज्ञान विभागेन असना इति चक्रवातस्य पश्चिम दक्षिण पश्चिम दिशि समेधनेन शनैः शनैः शिथिलता अपि सम्भाव्यते। अपरत्र तेलंगाना राज्यस्य विभिन्नेषु स्थलेषु अतिवृष्टिः भवति। अपि च अमेरिका ओपन टेनिस मिक्स्ड डबल्स इत्येतस्याः स्पर्धायाः प्रागुपान्त्यचक्रे रोहन बोपन्नाः इत्येषः अथ इण्डोनेशिया देशस्य अल्दिला सुत्ज़ियादि प्रविष्टवन्तौ। अथ वार्ताः विस्तरेण। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य नवदिल्ल्यां सर्वोच्च न्यायालयस्य नूतन ध्वजस्य प्रतीकचिह्नस्य च अनावरणम् अकरोत्। सममेव सा राष्ट्रिय जनपद न्यायपालिक सम्मेलनस्य समापन सत्रमपि सम्बोधितवती। अस्य द्विदिवसीय सम्मेलनस्य आयोजनं सर्वोच्च न्यायालयेन कृतम्। अस्मिन् जनपद न्यायपालिकायां पञ्च सत्राणि आयोजितानि। तेषु आधारिक संरचना, समग्र न्यायालयकक्षः, न्यायिक सुरक्षा, प्रकरण प्रबन्धनं प्रशिक्षणं च सम्मिलितानि आसन्। गतदिने प्रधानमन्त्री नरेन्द्र मोदी सम्मेलनस्य उद्घाटनावसरे अवोचत् यत् महिलासु अत्याचारः, बालानां सुरक्षा च समाजाय गभीर चिन्तायाः विषयो विद्यते। तेनोक्तं यत् देशे महिलानां सुरक्षायै कठोर विधि निर्मितास्ति, परं तासां प्रभावी रूपेण क्रियान्वयनस्य आवश्यकता वर्तते। रेलमन्त्री अश्विनी वैष्णवः अद्य बेंगलुरु नगरे नवनिर्मितस्य वन्दे भारत रेलयानस्य शयनयानश्रेण्याः निरीक्षणं कृतवान्। असौ कथितवान् यत् वन्दे भारत शयनयानस्य नवीनं संस्करणं परीक्षणाय सज्जमस्ति। आगामिषु त्रिषु मासेषु यात्रिणः अनेन लाभेन लाभान्विताः भविष्यन्ति। श्रीवैष्णवः प्रोदीरितवान् यत् अस्मिन् वन्दे भारत शयनयाने अनेकानि संशोधनानि जातानि। साम्प्रतं वन्दे भारत मेट्रो रेलयानस्य अपि परीक्षणमपि प्रचलति। स्वदेशे निर्मित वन्दे भारत शयनयाने यात्रिभ्यः अनेकानि सौविध्यानि समेधितानि। अवधेयं वर्तते वन्दे भारत रेलयानस्य एतस्यां शयनयानश्रेण्यां षोडश श्रेण्यः त्रयशीत्यधिक अष्टशतं आसनानि भविष्यन्ति इति। समग्रदेशे अद्य आरभ्य राष्ट्रिय पोषण सप्ताहः समाचर्यते। अयं सप्ताहः प्रतिवर्षं सितम्बर मासस्य प्रथम दिनांकतः सप्तम दिनांकं यावत् परिपाल्यते। अस्य वार्षिक कार्यक्रमस्य प्रारम्भः द्वयशीत्यधिक नवदशशतमे वर्षे महिला बाल विकास मन्त्रालयस्य खाद्य पोषण मण्डलद्वारा विहितः। आसप्ताहं प्रचल्यमानस्य अस्य उत्सवस्य उद्देश्यं जनानां मध्ये पोषण स्वास्थ्य सम्बद्ध जागरूकतायाः संवर्धनम् इति। अत्रावसरे नैकाः संगोष्ठ्यः, कार्यशालाः, शैक्षिक कार्यक्रमाः, सम्मेलनानि आयोज्यन्ते। उपराष्ट्रपतिः जगदीप धनखड़ कोलकाता नगरे एकया महिला प्रशिक्षु चिकित्सकया सह घटनां निन्दितवान्। असौ समाहूतवान् यत् एतादृशेषु अपराधेषु सम्मिलितानां दोषिणां दण्डनाय एकस्य तन्त्रस्य निर्माणम् आवश्यकम् अस्ति इति। अद्य उत्तराखण्ड राज्ये ऋषिकेशस्य एम्स इत्याख्ये संस्थाने छात्रान् संकाय सदस्यान् संबोधयन् श्री धनखड़ प्रोक्तवान् यत् अक्षम्य अपराधेभ्यः कठोर आचरणं विधीयते। असौ चिकित्सकानां परिचारिकानां स्वास्थ्यकर्मिणां च सुरक्षायै बलं प्रदत्तवान्। इतः पूर्वं स्वीय द्विदिवसीय यात्रायाः द्वितीये दिने उपराष्ट्रपतिः देहरादूनस्य राष्ट्रिय भारतीय सैन्य महाविद्यालयस्य प्रशिक्षून् सम्बोधितवान्। तेन भणितं यत् बालिकानां प्रवेशः लैंगिक समानतां लैंगिक न्यायं च प्रदर्शयति यत् अस्मिन् दिशि सकारात्मकः पदक्रमः उत्थापितः। संस्कृतवार्तायाः संस्करणमिदं इदानीं आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एयर चल दूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। ऋतु विज्ञान विभागेन देशस्य पश्चिम मध्य दक्षिण भागेषु प्रचंड वर्षायाः संचेतना प्रसारिता अस्ति। विभागेन उक्तं यत् विदर्भे तेलंगानायां च अद्य तीव्र वृष्टेः संभावना वर्तते। असम तटीय आंध्र प्रदेश यनम केरल माहे तेलंगानायां अपि प्रचुर वर्षायाः संभावना अस्ति। ऋतु विज्ञान विभागेन असना इति चक्रवातस्य पश्चिम दक्षिण पश्चिम दिशि समेधनेन शनैः शनैः शिथिलता अपि संभाव्यते। अयं चक्रवातः पश्चिम बंगालस्य खात्यां उत्तर पश्चिम प्रति समेधितम्। तेलंगाना राज्यस्य विभिन्नेषु स्थलेषु अतिवृष्टिः भवति। अनया राज्ये जनजीवनं प्रभावितं जातम् तथा च विभिन्नानां जनपदानां निम्नक्षेत्रेषु जलसंग्रहणमपि जातम्। राज्यप्रशासनेन एकादश जनपदानां प्रशासनेभ्यः रक्तवार्णिकी संचेतना प्रख्यापिता। मुख्यमंत्री रेवंत रेड्डी आपात सेवानां अधिकारिभ्यः चतुर्विंशति होरां यावत् उपलब्धतायै निर्देशः प्रदत्तः। आन्ध्रप्रदेश आपत प्रबन्धन प्राधिकरणेन असना इति चक्रवात विषये संचेतितं यत् अयं चक्रवातः गतरात्रौ सार्ध द्वादश वादनात् सार्ध द्विवादनं यावत् कलिंगपट्टन तटम् उत्क्रान्तः। अस्य चक्रवातस्य प्रभावेन उत्तर आन्ध्रप्रदेश दक्षिण ओडिशा क्षेत्रे प्रभाविते भविष्यतः। राज्यस्य नैकेषु भागेषु वृष्टिः संजायते। राज्य प्राधिकरणे संसेचितं यत् कृष्णा नद्याः जलस्तरं प्रथमस्तरात् उपरि विद्यते। अद्य नवदिल्ल्यां भारतीय वायुसेनायाः उपप्रमुखस्य पदभारं संभालितवान्। पदभार ग्रहणानन्तरं तेन राष्ट्रिय युद्ध स्मारकम् उपेत्य सर्वोच्च बलिदान कर्तृभ्यः वीरेभ्यः पुष्पाञ्जलिः अर्पिता। एयर मार्शल तेजेन्दर सिंहः राष्ट्रिय रक्षा अकादम्याः पूर्व छात्रः अस्ति। सप्तोत्तर द्विसहस्रतमे वर्षे तस्मै वायुसेना पदकम् अथ द्वाविंशत्युत्तर द्विसहस्रतमे अतिविशिष्ट सेवापदकं च उपायनीकृतम् इति वार्ताः।